अथ द्वितीयोऽध्यायः सञ्जय उवाच तं तथा कृपया विष्टम् अश्रुपूर्णाकुलेक्षणम् निषेदम् तमिदम् वाक्यम् उवाच मधुसूदनः श्रीभगवानुवाच कुतस्त्वाकष्मलमिदम् विषमे समुपस्थितम् अनार्यजुष्टमस्वर्ग्यम् अकीर्तिकरमर्जुन क्लैव्यमात्मगमः पार्थ नैतत्त्वयुपपद्यते क्षुद्रम् हृदयदौर्बल्यम् यत्त्वोत्तिष्ठ परम् तप अर्जुन उवाच कथम् भीष्ममहम् सङ्ख्ये द्रोणम् च मधुसूदन इषुभिः प्रतियोत्यामि पूजार्हावरिसूदन गुरूणः त्वा हि महानुधावान् श्रेयो भोक्तुम् भैक्षमतेह लोके सत्त्वा तत्त्वमास्तु गुरूनिहैव भुङ्गीय भोगान् रुधिरप्रदिग्धा न चैतद्विद्मत्कतरन्नो गरीयः यद्वा जयेम यदि वा नो जयेयुः यानेव हत्वा नदि जीविकामः ते वक्तिता प्रमुखे धार्तराष्ट्राः कार्पण्यदोषोपहतत्वभावः पृच्छामि त्वाम् धर्मतम् मूढचेताः यच्छ्रेयस्याम् निश्चितम् ब्रूहि तन्मे शिष्यस्तेऽहम् साधिमाम् त्वाम् प्रपन्नम् न हि प्रपश्यामि ममापनुद्यात् यच्छोकमुच्छोषणमिन्द्रियाणाम् अवाप्य भूमावसपत्नमृद्धम् राज्यम् सुराणामपि चाधिपत्यम् सञ्जय उवाच एवमुक्त्वा हृषीकेशम् गुडाकेशः परम् तप नयोत्य इति गोविन्दम् उक्त्वा तूष्णीम् बभूवः समुवाच हृषीकेशः प्रहसन्निव भारत तेनयोरुभयोर्मध्ये विषीदम् तमिदम् वचः श्रीभगवानुवाच अशोच्यानन्वशोचत्वम् प्रज्ञावादांश्च भाषते गतासु न गतासुश्च नानुशोचन्ति पण्डिताः न त्वेवाहम् जातु नाकम् न त्वम् मेने जनाधिपाः न चैव न भविष्यामः सर्वे वयमतत्परम् देहिनोऽस्मिन् यथा देहे कौमारम् यौवनम् जरा तथा देहान्तरप्राप्तिः धीरस्तत्र न मुह्यति मात्रा स्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः आगमापायिनो नित्याः सांस्थितिक्षस्व भारत यं हि न व्यथयम् चेते पुरुषम् पुरुषर्षभ समदुःखसुखम् धीरम् सुन्दतत्वाय कल्पते नाशतो विद्यते भावः नाभावो विद्यते ततः उभयोरपि दृष्टोऽन्तः त्वनयोस्तत्त्वदर्शिभिः अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति अन्तवन्त इमे देहाः नित्यस्योक्ता शरीरिणः अनाशिनोत्प्रमेयस्य तस्माद्युध्यस्व भारत य एनं वेत्ति हंसारम् यश्चैनम् मन्यते हतम् उभौ तौ न विजानीतः नायम् हन्ति न हन्यते न जायते म्रियते वा कदाचित् नायम् भूत्वा भविता वा न भूयः अजो नित्यः शाश्वतोऽयम् पुराणः न हन्यते हन्यमाने शरीरे वेदाविनाशिनम् नित्यम् य एनमजमव्ययम् कथम् स पुरुषः पार्थ कङ्घातयति हन्तिकम् वासांसि दीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देहि नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः न चैनं तेदयं स्यामः न शोषयति मारुतः अक्षेद्योऽयमदास्योऽयम् अक्लेद्यो शोष्य एव च नित्यः सर्वगतः स्थाणुः अतलोऽयम् सनातनः अव्यक्तोऽयमतिन्त्योऽयम् अविकार्योऽयमुच्यते तस्मादेवम् विदित्वैनम् नानुशोचितुमर्हति अथ चैनम् नित्यजातम् नित्यम् वा मन्यते मृतम् तथापि त्वम् महाबाहो नैवम् शोचितुमर्हसि जातस्य हि ध्रुवो मृत्युः ध्रुवम् जन्म मृतस्य च तस्मादपरिहार्येऽर्थे न त्वम् शोचितुमर्हसि अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत अव्यक्तनिधनान्येव तत्र का परिदेवन आश्चर्यवत् पश्यति कश्चिदेनम् आश्चर्यवत् वदति तथैव कम्यः आश्चर्यवश्चैनमन्यः शृणोति श्रुत्वाप्येनम् वेदन चैव कश्चिदे देहे नित्यमवभ्योऽयम् देहे सर्वस्य भारत तस्मात् सर्वाणि भूतानि न त्वम् शोचितुमर्हसि स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि धर्म्याद्ययुद्ध्याश्रेयोन्यते क्षत्रियस्य न विद्यते यदृक्षया चोपपन्नम् स्वर्गद्वारमपावृतम् सुखिनः क्षत्रिया पार्थ लभन्ते युद्धमीदृशम् अत त्वमिमम् धर्म्यम् सङ्ग्रामम् न करिष्यसि ततः स्वधर्मम् कीर्तिम् च हित्वा पापमवाप्यसि अकीर्तिं च विभूतानि कथयिष्यन्ति ते व्ययाम् सम्भावितस्य च कीर्तिः मरणादतिरिच्यते भयाद्रणादुपरतम् मन्त्यन्ते त्वाम् महारथाः तेषाम् च त्वम् बहुमतः भूत्वा यास्यसि लाघवम् अवाप्यवादांश्च बहून् वदिष्यन्ति तवाहिताः निन्दन्तस्तव सामर्थ्यम् ततो दुःखतरम् नु किम् अतो वा प्राप्यसि स्वर्गम् जित्वा वा भोक्ष्यते महि तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः सुखदुःखे समे कृत्वा लाभालाभौ जया जयौ ततो युद्धाय युज्यस्व नैवम् पापमवाप्यसि एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगेऽस्मि माम् शृणु बुद्ध्या युक्तो यया पार्थ कर्मबन्धम् प्रहास्यसि नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् व्यवसायात्मिका बुद्धिः एकेह कुरु नन्दन बहुशाखाश्यनन्ताश्च बुद्धयो व्यवसायिनाम् यामि माम् पुष्पिताम् वाचम् प्रवदन्त्य विपक्षितः वेदवादरताः पार्थ नान्यदस्तीति वादिनः कामात्मानः स्वर्गपराः जन्म कर्म फलप्रदा क्रियाविशेष बहुला भोगैश्वर्यगतिम् प्रति भोगैश्वर्यप्रसक्तानाम् अयापहृतचेतसाम् व्यवसायात्मिका बुद्धिः समाधौ न विधीयते त्रैगुण्यविषया वेदाः निस्त्रैगुण्यो भवार्जुन निर्द्वन्द्वो नित्यसत्त्वस्थः निर्योगक्षेम आत्मवा यावानर्थबुदपाने सर्वतः संप्लुतोदके तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भूः मा ते सङ्गोस्वकर्मणि योगस्थ कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय सिद्ध्यसिद्ध्यो समो भूत्वा समत्वम् योग उच्यते दूरेणस्य वरम् कर्म बुद्धियोगाद्धनञ्जय बुद्धौ शरणमन्विच्य कृपणाः फलहेतवः बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते तस्माद्योगाय युज्यत्व योगकर्मसु कौशलम् कर्मजम् बुद्धियुक्ता हि फलम् त्यक्त्वा मनीषिणः जन्मबन्धविनिर्मुक्ताः पदम् गच्छन्त्यनामयम्। యదా తే మోహ సలిలం బుద్ధిర్వ్యతితరిష్యతి తదా దంతాతి నిర్వేదం శ్రోతవ్యస్య శృతస్య చ శృతి విప్రతిపన్నాతే యదా స్థాస్యతి నిశ్చల సమాధావచల బుద్ధి తదా యోగమవాప్స్యసి. అర్జున ఉవాచ స్థిత ప్రజ్ఞస్య కాభాష సమాధిస్తస్య కేశవ స్థితభి కిం ప్రభాషేత కిమాసేత వ్రజేత కిం. శ్రీభగవానువాచ ప్రజహాతి యదా కామా సర్వాన్ పార్థమనోగతా ఆత్మన్యేవాత్మనా తుష్టః స్థిత ప్రజ్ఞస్తదుచ్యతే. దుఃఖేష్వనుద్విగ్నమనాః సుఖేషు విగతః స్పృహః వీతరాగభయక్రోధః స్థితధీర్మునిరుచ్యతే. యః సర్వత్రానభిస్నేహః తత్తత్ప్రాప్య శుభాశుభం నాభినందతి న ద్వేష్టి తస్య ప్రజ్ఞా ప్రతిష్ఠిత. యదా సంహరతే చాయం కూర్మోంగానీవ సర్వశః ఇంద్రియాణి ఇంద్రియార్థేభ్యః తస్య ప్రజ్ఞా ప్రతిష్ఠిత. విషయా వినివర్తంతే నిరాహారస్య దేహినః రసవర్జ్యం రసోప్యస్య పరం దృష్ట్వా నివర్తతే. యతతోస్యపి కౌంతేయ పురుషస్య విపశ్చితః ఇంద్రియాణి ప్రమాథీని హరంతి ప్రసభం మనః తాని సర్వాణి సంయమ్య యుక్త ఆసీత మత్పరః. వశే హి యస్యేంద్రియాణి తస్య ప్రజ్ఞా ప్రతిష్ఠితా. ధ్యాయతో విషయాన్ పుంసః సంగస్తేషు సజాయతే సంగాత్ సంజాయతే కామః కామాత్ క్రోధోభిజాయతే క్రోధాద్ భవతి సమ్మోహః సమ్మోహాత్ స్మృతిభ్రమః స్మృతిభ్రంశాద్ బుద్ధినాశః బుద్ధినాశాత్ ప్రణశ్యతి. రాగద్వేషవియుక్తైస్తు విషయాన్ ఇంద్రియైశ్చరన్ ఆత్మవశ్యైర్విధేయాత్మా ప్రసాదమభిగచ్చతి. ప్రసాదే సర్వదుఃఖానాం హానిరస్యోపజాయతే. ప్రసన్నచేతసో హ్యాశు బుద్ధిపర్యవతిష్ఠతే. నాస్తి బుద్ధిరయుక్తస్య న చాయుక్తస్య భావనా న చాభావయతః శాంతిః అశాంతస్య కుతః సుఖం. ఇంద్రియాణాం హి చరతాం యం నమోను విధీయతే తదస్య హరతి ప్రజ్ఞాం వాయుర్నావమివంభతి. తస్మాద్ యస్య మహాబాహో నిగృహీతాని సర్వశః ఇంద్రియాణి ఇంద్రియార్థేభ్యః తస్య ప్రజ్ఞా ప్రతిష్ఠిత. యాని సా సర్వభూతానాం తస్యాం జాగర్తి సంయమీ. యస్యాం జాగ్రతి భూతాని తాని సా పశ్యతో మునే. ఆపూర్యమాణమచల ప్రదిష్టం సముద్రమాప ప్రవిశంతి యద్వత్ తద్వత్ కామాయం ప్రవిశంతి సర్వే శాంతిమాప్నోతి న కామకామీ విహాయ కామాన్ యః సర్వా పుమాంశ్చరతి నిస్పృహః నిర్మమో నిరహంకారః స శాంతిమధిగచ్చతి ఏషా బ్రాహ్మీ స్థితిః పార్థ నైనాం ప్రాప్య విముచ్యతి శిక్లాస్యావంతకాలేతి బ్రహ్మ నిర్వాణమృచ్ఛతి ఓం తత్సదితి శ్రీమద్భగవద్గీతాసు ఉపనిషత్సు బ్రహ్మ విద్యాయాం యోగశాస్త్రే శ్రీకృష్ణార్జున సంవాదే సాంఖ్యయోగో నామ ద్వితీయోధ్యాయః।